గణపతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆనశృణ్వన్నోతిభిః సేదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతి ధీనామవిత్రయవతు గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాత ఇష శివతమా శివం బభూవతే ధనుః శివాశరవ్యా యాతవతయా నో రుద్రమృడయా యాతే రుద్ర శివా తనూరఘోరా పాపకాశినీ తయా నస్తను వాశంతమయా గిరిశంతాభి చాకశీ యామిషుం గిరిశంత హస్తే విభర్షస్తవే శివాం గిరిత్రతాం కురు మాహి గుంసి పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్చా వదామసి యథా నః సర్వమిజ్జగద యక్ష్మగుం సుమనా అసత్ అద్య వోచదది వక్తా ప్రథమో దైవ్యోభిషక్ అహీగశ్చ సర్వాన్ జంభయన్ సర్వాశ్చయాతు ధాన్యః అసౌ యస్తామ్రో అరుణ ఉత బభ్రుస్సు మంగళః యే చేమాగుం రుద్రా అభితో దిక్షుశ్రుతా సహస్రశో వైశాగుం హేళ ఈమహే అసౌ యో వసర్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నుదార్యః ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే అథో యే అస్య సత్వానోహం తేభ్యో కరన్నమః ప్రముంచ ధన్వనస్త్వముభయోరాజ్ఞయోర్జ్యాం యాశ్చ తే హస్త ఇషవః పరాతా భగవో వప అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషుధే నిషీర్య శల్యానాముకా శివో నః సుమనా భవ విజ్జం ధనుః కపర్దినో విశల్యో బాణవాగుం హుతా అనేషన్నస్యేషవ ఆభురస్య నిషంగతిః యాతే హేతిర్మీడుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజా నమస్తే అస్త్వాయుధాయానాతతాయ ధృష్ణవే ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరిచే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అథోయ ఇషుదిస్తవారే అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః నమో హిరణ్యబాహవే సేనాన్యే దిశాం చ పదయే నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పదయే నమో నమః సస్పింజరాయ ద్విషీమతే పథీనాం పదయే నమో నమో బభ్రుషాయ వివ్యాధినేన్నానాం పదయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పదయే नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विरेक्षेत्राणां पतये नमो नमः सूदाय हन्त्याय वनानां पतये नमो नमो रोहिताय स्तपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नम कृष्णभीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिने सेनानां पतये नमो नमो निषङ्गिन इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः श्रिकाविभ्यो जिगागुंसद्व्योमुष्णतां पतये नमो नमो श्रीमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुरुञ्चानां पतये नमो नम इषुमद्भ्यो दन्वाविभ्यश्च भो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च भो नमो नम आयश्चभ्यो विसृतद्भ्यश्च भो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च भो नमो नम आसीनेभ्यश्चयानेभ्यश्च भो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च भो नमो नमस्तिष्ठद्भ्यो दावद्भ्यश्च भो नमो नम सभाभ्यः सभापतिभ्यश्च भो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च भो नमः नम आव्याधिनीभ्यो विविद्यन्तेभ्यश्च भो नमो नम उगणाभ्यस्तृगुम्भतेभ्यश्च भो नमो नमो वृत्सेभ्यो वृत्सपतिभ्यश्च भो नमो नमो ्यो रातपतिभ्यश्च भो नमो नमो गणेभ्यो गणपतिभ्यश्च भो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च भो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च भो नमो नमो रथिभ्यो रथेभ्यश्च भो नमो नमो रथेभ्यो रथपतिभ्यश्च भो नमो नमः सेनाभ्यः सेना भ्यश्च भो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च भो नमो नमः सक्षभ्यो रथकारेभ्यश्च भो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च भो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च भो नमो नम इषुकृद्भ्यो दन्वकृद्भ्यश्च भो नमो नमो मृगयुभ्यश्वनिभ्यश्च भो नमो नमः श्वभ्यश्वपतिभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीडुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्ध्याय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरताय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूदिने च नमो भिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च अनन्याय च नमो धृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुदन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सूर्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कूप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेध्याय च विद्युत्याय च नमः ईद्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः शीर्त्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्ट्याय च पेण्याय च नमः सिकत्याय च प्रवाह्याय च नमः हिरण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्टाय च नमो हृदय्याय च निवेष्ट्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमानाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीभत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्चनाममत् या ते रुद्र शिवा तनु शिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजी तया नो मृणजीवसे इमागुं रुद्राय तव से कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा न शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोदनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चञ्चयोश्च मनुरायजे पिता तदश्याम तव रुद्रप्रणीतौ मानो महान्तमुत मानो अर्भकम् मान उक्षन्तमुत मान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रिया मानस्तनुवो रुद्ररेशः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वदे हविष्मन्तो नमसा विधेमते आराते गोग्र उत पुरुषग्ने क्षयद्वीराय सुम्न भस्मेते अस्तु रक्षाचरो अधि च देव ब्रूयदा च न शर्म यच्च द्विबर्हा स्तुहिश्रुतम् गर्त स दैयुवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेना परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायो अवस्थिरा भगवद्व्यस्तनुष्वमेकस्तोकायतनयाय मृडया मीडुष्टम शिवतम शिवो नः सुमना भव परमे वृक्ष आयुधन्विदाय कृत्तिम् वशा न आचर पिनाकम् बिभ्रदागहे विकिरिल विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् तेषागुम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि नीलग्रीवाश्यति कण्ठा शर्वा अरः क्षमाचरा नीलग्रीवाश्यति कण्ठादिवगुम् रुद्रा उपश्रिता ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिता ये भूतानामधिपतयो विशिकासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पताम् पतिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति श्रिकावन्तो निषङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राभितस्थिरे तेषागुंसहस्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिव्ये शामन्नम् वातो वर्षविषभस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोदीचीर्दशोद्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् द्विष्मो यश्च नो द्वेषितम् भोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाभिवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशा मृत्योमर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानमयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हियस्विशुसुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे एष जोयगुम् शिवाभिमर्शनः ॐ शान्ति 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 शञ्च मे मयश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सूश्च मे प्रसूश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ॐ शांति 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 ॐ अग्निमीले पुरोहितं यज्ञस्य देवमृत्युजम् होतारं रत्नदातमम् ऋग्वेदात्मने सूर्यनारायण स्वामिने नमः इषे त्वोर्जे त्वा वायवस्तो वायवस्तदेवो वत्सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे यजुर्वेदात्मने सूर्यनारायण स्वामिने नमः अग्न आयाहि वीतये गृढानो हव्यदातये निहोता सत्सि बर्हिषे सामवेदात्मने सूर्यनारायण स्वामिने नमः शन्नो देवी रविष्टय आपो भवन्तु पीतये शय्यो रविश्रवन्तु नः अथर्ववेदात्मने सूर्यनारायण स्वामिने नमः दृढि सूर्य आदित्यो न प्रभावात्यक्षरम् मधुक्षरन्ति तद्रसम् सत्यं वै तद्रसमापो ज्योतिरसोऽमृतम् ब्रह्मभूर्भुवत्सुभणो छायासु वर्चलाम् वासमेतत् श्रीसूर्यनारायण स्वामिने नमः तरणिर्विश्वदर्शतो ज्योतिश्रुदति सूर्या विश्वमाभासि रोचनम् उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष तेजो निसूर्याय त्वा भ्राजस्वते छायासु वर्चलाम् वासमेतत् श्रीसूर्यनारायण स्वामिने नमः ॐ ह्राम् उद्यन्नद्य मित्रमः मित्राय नमः ॐ ह्रीं आरोहन्नुत्तरान्दिवम् रवये नमः ॐ ह्रूं हृद्रोगम् मम सूर्या सूर्याय नमः ॐ ह्रैं हरिमाणम् च नाशय भानवे नमः ॐ ह्रौं शुकेषु मे हरिमाणम् खगाय नमः ॐ ह्रः रोपणाकाशु दद्मसे पोष्णे नमः ॐ ह्राम् अथो हारिद्रवेषु मे हिरण्यगर्भाय नमः ॐ ह्रीं हरिमानन्दि दद्मसे मरीचये नमः ॐ ह्रूं उदगादयमादित्यः आदित्याय नमः ॐ ह्रैं विश्वेन सहसा सह सवित्रे नमः ॐ ह्रौं निरन्तम् मम नन्दयन्न अर्काय नमः ॐ ह्रः मोऽहम् दिशतो रथम् भास्कराय नमः ॐ ह्रां ह्रीं उद्यन्नद्य मित्रमः आरोहन्नुत्तरान्दिवम् मित्ररविभ्याम् नमः ॐ ह्रूं ह्रैं हृद्रोगम् मम सूर्या हरिमानम् च नाशय सूर्यभानुभ्याम् नमः ॐ ह्रौं ह्रः शुकेषु मे हरिमाणम् रोपणाकाशु दद्मसे खगपूषभ्याम् नमः ॐ ह्रां ह्रीं अतो हारिद्रवेषु मे हरिमाणन्नि दद्मसे हिरण्यगर्भमरीचिभ्यां नमः। ॐ ह्रूं ह्रैं उदगादयमादित्यः विश्वे दधदातः आदित्यसवितृभ्यां नमः। ॐ ह्रौं ह्रः द्विषन्तं मम रन्धयन्न मो अहं द्विषतो रथम् अर्कभास्कराभ्यां नमः। ॐ ह्रां ह्रीं ह्रूं ह्रैं उद्यन्नद्यमित्रमः आरोहन्नुत्तरां दिवम् हृद्रोगं मम सूर्य हरिमानं च नाशय मित्ररविचूर्य भानुभ्यो नमः। ॐ ह्रौं ह्रः ह्रां ह्रीं शुकेषु मे हरिमानम् रोपणाकासु दद्मते अतो हारिद्रवेषु मे हरिमानन्नि दद्मसि खगपूष हिरण्यगर्भमरीचिभ्यो नमः। ॐ ह्रूं ह्रैं ह्रौं ह्रः उदगादयमादित्यः विश्वे न सहसा सह द्विषन्तं मम रन्धयन्न मो अहं द्विषतो रथम् आदित्यसमित्रर्कभास्करेभ्यो नमः। ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमः आरोहन्नुत्तरां दिवम् हृद्रोगं मम सूर्य हरिमानं च नाशय शुकेषु मे हरिमानम् रोपणाकासु दद्मसि मित्ररविसूर्यभानुखगपूषभ्यो नमः। ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः अरोहारिद्रवेषु मे हरिमानन्नि दद्मसि उदगादयमादित्यः विश्वे न दासासः द्विषन्तं मम रन्धयन्न मो अहं द्विषतो रथम् हिरण्यगर्भमरीच्यादित्यसवितर्कभास्करेभ्यो नमः। ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमः आरोहन्नुत्तरां दिवम् हृद्रोगं मम सूर्य हरिमानं च नाशय शुकेषु मे हरिमानम् रोपणाकासु दद्मसि अतो हारिद्रवेषु मे हरिमानन्नि दद्मसि उदगादयमादित्यः विश्वे न सहसा सह द्विषन्तं मम रन्धयन्न मो अहं द्विषतो रथम् मित्ररविचूर्यभानुखगपूष हिरण्यगर्भमरीच्यादित्यसवितर्कभास्करेभ्यो नमः। आदित्यो वा एष एतन्मण्डलम् तपति तत्र दारुचत्तदृशा मण्डलपुंसरजान् लोकोत्थय एष एतस्मिन् मण्डले चिर्दीप्यते तानि सामानि च साम्नाम् लोकोत्थय एष एतस्मिन् मण्डले चिरिपुरुषस्तानि यजोगम् श्रिदयजुषाम् मण्डलपुंसयजुषाम् लोकस्यैषात्रय ेव विद्यातपति य एषोऽन्तरादित्येरन्वयः पुरुषः छाया सुवर्चलाम् वा समेत श्रीसूर्यनारायणस्वामिने नमः। ఆదిత్యో వై తేజోజో బలం యశ్చక్షుశ్రోత్రమాత్మా మనోమన్యుర్మనుర్మృత్యు సత్యో మిత్రో వాయురాకాశ ప్రాణో లోకపాన కింకం తత్సత్యమన్నమృతో జీవో విశ్వ కథమ స్వయం బ్రహ్మేతదమృత ఏష పురుష ఏష భూతానామధిపతి బ్రహ్మణ సాయుజ్యగం స లోకతామాప్నోత్యేతాసామేవ దేవతానాగుం సాయుజ్యగం సాశ్రితాగుం సమానలోకతామాప్నోత్య ఏవం వేదేత్యుపనిషద్. ఛాయాసువచ్చలాంబాసమేత శ్రీ సూర్యనారాయణ స్వామినే నమః. ఓం శాంతి శాంతి శాంతి. తేజోసి తత్తే ప్రయచ్ఛామి తేజస్వదస్సు మే ముఖం తేజస్వచ్చిరో అస్తు మే తేజస్వాన్ విశ్వత ప్రత్యం తేజసా సంవివృద్ధిమా. ఓజోసే తత్తే ప్రయచ్ఛామి ఓజస్వదస్తు మే ముఖం ఓజస్వచ్చిరో అస్తు మే ఓజస్వాన్ విశ్వత ప్రత్యం ఓజసా సంవివృద్ధిమా. పయోసే తత్తే ప్రయచ్ఛామి పయస్వదస్తు మే ముఖం పయస్వచ్చిరో అస్తు మే పయస్వాన్ విశ్వత ప్రత్యం పయసా సంవివృద్ధిమా. ఆయురసే తత్తే ప్రయచ్ఛామి ఆయుష్మదస్తు మే ముఖం ఆయుష్మచ్చిరో అస్సు మే ఆయుష్మాన్ విశ్వత ప్రత్యం ఆయుషా సంవివృద్ధిమా. ఇమమగ్న ఆయుషే వర్చసే కృదే ప్రియగుం రేతో వరుణ సోమరాజన్ మా దేవాస్మా అదితే శర్మయచ్చ విశ్వే దేవా జరదశ్చిర్యదాసత. ఆయురసి విశ్వాయురసే సర్వాయురసి సర్వమాయురసే యతో వాతో మనోజవా యతః శరంతి సింధవః తాసాం త్వా సర్వాసాగుం రుచ అవిశంచామి వచ్చసా సముద్ర ఇవాసి గంహణా సోమ ఇవాస్యదాభ్యః అగ్నిరివ విశ్వద ప్రత్యం సూర్య ఇవ జ్యోతిషా విభూ అవామ్యోద్రవణే రసః తమహమస్మాయణాయ తేజసే బ్రహ్మ వర్చసాయ గృహ్ణామి అవామ్య ఊర్మౌరస తమహమస్మాయణాయ ఓజసే వేద్యాయ గృహ్ణామి అవామ్యో మధ్యతోరస తమహమస్మాయణాయ పుష్టయే ప్రజననాయ గృహ్ణామి అవామ్యో యజ్ఞయోరస తమహమస్మాయణాయ ఆయుషే దీర్ఘాయ యుక్త్యాయ గృహ్ణామి. ఓం శాంతి శాంతి శాంతి. ఓం భద్రం కర్ణే విష్ణుయామదేవా భద్రం పశ్యే మాశ్యభిర్యజత్రా స్థిరైరంగైస్తువాగుంసస్తనూభిః వ్యసేమ దేవహితంయదాయుః స్వస్తిన ఇంద్రో వృద్ధశ్రవాః స్వస్తిన పూషా విశ్వవేదాః స్వస్తి నస్తాక్షో అరిష్టనేమిః స్వస్తినో బృహస్పతిర్దధాతు. ఓ नारायणयुक्तं बीजं हृल्लेखाशक्तिः द्विरदादिसर्गसंयुक्तं तिलकं चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः षट्स्वरारूढेन बीजेन षडङ्गं रक्ता भुजसंस्कृतं सप्ताश्वरखिलं हिरण्यवर्णं चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यनारायणं य एवं वेदसै ब्राह्मणः ॐ भूर्भुवस्सुवः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न प्रचोदयात् सूर्य आत्मा जगतस्तस्तुषश्च सूर्याद्वैकल्पिमानि भूतानि जायन्ते सूर्याद्यज्ञपर्जन्योन्न आत्मा नमस्ते आदित्या त्वमेव प्रत्यक्षं कर्म कर्तासि त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं विष्णुरसि त्वमेव प्रत्यक्षं रुद्रोऽसि त्वमेव प्रत्यक्षं मृगसि त्वमेव प्रत्यक्षं यजुरसि त्वमेव प्रत्यक्षं सामासि त्वमेव प्रत्यक्षमथर्वासि त्वमेव सर्वं छन्दोऽसि आदित्यात्वायुर्जायते आदित्याद्भूमिर्जायते आदित्यादापो जायन्ते आदित्याज्योतिर्जायते आदित्याद्व्योमदिशो जायन्ते आदित्याद्देवा जायन्ते आदित्याद्वेदा जायन्ते आदित्यो वा एष एतन्मण्डलं तपति असावादित्यो ब्रह्मा आदित्योऽन्तःकरणमनो बुद्धिचित्ताहङ्कारा आदित्यो वै व्यानसमानो दानोपानप्राणः आदित्यो वै श्रोत्रचक्षुरसरग्राणाः आदित्यो वै वाक्पाणिपादपायोपस्थाः आदित्यो वै शब्दस्पर्शरूपरसगन्धाः आदित्यो वै वचनादानागमनविसर्गानन्दाः आनन्दमयो विज्ञानमयो विज्ञानगण आदित्यः नमो मित्राय भानवे मृत्यो विष्णवे विश्वहेतवे नमः सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु सूर्येलयं प्राप्नुवन्ति यः सूर्यस्तोऽहमेव च चक्षुर्णो देवस्सविता चक्षुर्ण उत पर्वतः चक्षुर्धाता दधातु नः आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नः सूर्य प्रचोदयात् सविता पुरस्तात् सविता पश्चात्तात् सवितोऽधरातात् सविता धरातात् सविता नः सुवतु सर्वदा त्रिगुं सविता नो राधतां दीर्घमायुः ओमित्येकाक्षरं ब्रह्मा गृणिरिति द्वे अक्षरे सूर्य इत्यक्षरद्वयम् आदित्य इति त्रीण्यक्षराणि एतस्यैव सूर्यस्याष्टाक्षरो मनो यस्तदा हरहर् जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति सूर्याभिमुखो जप्त्वा महाव्याधिभयात् प्रमुच्यते अलक्ष्मी दृश्यते अभक्ष्य भक्षणात् भूतो भवति, अगम्यागमनात् भूतो भवति, पतित सम्भाषणात् भूतो भवति, असत्सम्भाषणात् भूतो भवति, मध्याह्ने सूर्याभिमुख पटे सद्योत्पन्न पञ्चमहापाचका प्रभुज्यते, सैषा सावित्रे विद्या न किञ्चिदपि न कस्मैचित् प्रशंसते, य एता महाभाग प्रातः पठति स वाद्यवान् गायते पशोन्विन्दते, वेदार्थम् लभते त्रिकालमेतज्जप्त्वा क्रतुशत परमवाप्नोति, हस्तादित्ये जपति स महामृत्युम् तरति स महामृत्युम् तरति य एवम् वेद इत्युपनिषत्। भद्रम् कर्णे विशृणुयामदेवा, भद्रम् पश्ये भाष्यभिर्यजत्रा, निरैरङ्गैः सुष्ठु वागुंसस्तनोभिः व्यशेम देवहितम् यदायुः, स्वस्ति न इन्द्रो वृद्धश्रवाः, स्वस्ति नः पूषा विश्ववेदाः, स्वस्ति नस्ताक्षो अरिष्टनेमिः, स्वस्ति नो बृहस्पतिर्ददातु।
अम्बिकापतय उमापतय
पशुपतये नमो नमः स्मृतगुं सत्यं परं ब्रह्मपुरुषं कृष्णपिङ्गलं पूर्वयेतं विरूपाक्षं विश्वरूपाय वै नमो नमः सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वै रुद्रस्तन्महो नमो नमः विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं जयत् सर्वोऽक्लेश रुद्रस्तस्मै रुद्राय नमो अस्तु कद्रुद्राय प्रयेतसे वीरुष्यमागतव्यसे भोजे वशन्तमगुं हृदे सर्वोऽक्लेश रुद्रस्तस्मै रुद्राय नमो अस्तु स्वस्ति प्रजाभ्यः परिपालयन्ता ज्ञायेन मार्गेण भजे महेशा शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति।